वदनं लंबोदरं सुंदरं रसयन्दन् मधुगन्धलुब्धमधुप व्यालोल्गंडस्तनं दन्ताघात विदारितारिरुधिरये सिन्दूरशोभाकरं वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् श्रीशङ्कष्टनाशनं गणेशस्तोत्रम् ॐ प्रणम्य शिरसादेवं गौरीपुत्रं विनायकं भक्तावासुं स्मरेन्नित्यं मायुष्कामार्थसिद्धये प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं लंबोदरं पञ्चमं च षष्ठं विकटमेव च सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमं नवमं भालचंद्रं च दशमं तो विनायकं एकादशं गणपतिं द्वादशं तु गजाननं द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् विद्यार्थी लभते विद्यां धनार्थी लभते धनं पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिं जपेत् गणपते स्तोत्रं षड्भिर्मासैः फलं लभेत् संवत्सरेण सिद्धिं च लभते नात्र संशयः अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् अस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ॐ श्री संकटनाशनं गणेशस्तोत्रम् तद्सद्गणेशार्पणमस्तु।